अथ श्रीशिवमहिम्न स्तोत्रम् पुष्पदन्त उवाच महिम्न पारन्ते परमविदुषो यद्य सदृशी स्तुतिर्ब्रह्मादीना मतितदवसन्ना त्वयि गिरः अथावाच्य सर्वस्वमतिपरिणामाधिगृणन् ममाप्येष स्तोत्रे हरनिरपवादः परिकरः अतीत पन्थानन् तव च महिमा वा मनसयो रथद्व्यावृत्यायन् चकितमभिधत्ते श्रुतिरपि सकस्य स्तोतव्य प्रतिविधगुणस्तकस्य विषयः हरे त्वर्वाचीने पतति न मनः कस्य न वचः मधुस्मीतावाच परममृतम् निर्मितवतस्तव ब्रह्मन् किं वा गपितुर्गुरोर्विस्मयपदम् महत्वेतां वाणीं गुणकथनपुण्येन भवतः गुणामेत्यरथेऽस्मिन् पुनर्मघनबुद्धिर्व्यवसिता यत्र जगद्रक्षा प्रलयकृत्रयीवस्तु व्यक्तम् तितृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणि निहन्तु व्याक्रोशे विदधतैहैके जडधियः किमीह किङ्कायस्त खलु किमुपाय त्रिभुवनम् किमाधारो धाता सृजति किमुपाधान इति च अतर्क्यैश्वर्ये त्वयि नवसरदुस्थोहतभियः उदर्गोयङ्कांश्चिन् मुखरयति मोहाय जगतः अजन्मानो लोका किमवयववन्तोऽपि जगता मधिष्ठातारं किम् भवविधिरनादृत्य भवति अनीशो वा कुर्यात् भुवनजननेकः परिकरो यतो मन्दात्वाम् प्रत्यमरवरसंशेरत इमे त्रयीसाङ्ग्ययोगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमतः पक्षमिति च ऋषीणां वैचित्र्या दृजुकुटिलनापथजुषा नृणामेको गम्य त्वमसि पयसा मर्णव इव मोहोक्षखटवाङ्गम् परशुरजिनम् भस्मफणिनः कपालम् चेतीयत्तव वरतन्त्रोपकरणम् सुरान्तामृद्धिन् दधति तु भवद्भ्रू प्रणिहिता हि स्वात्मा रामम् विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरत्वध्रुवमिदम् परो द्रव्याद्रव्ये जगति गतति व्यक्त विषये समस्तेऽप्येतस्मिन् पूर्वतनतैर्विस्मित इव सुवञ्जिर्हेमित्वा न खलु ननु दृष्टा मुखरता सर्वैश्वर्यै यदुपरि विरिञ्चिर्हरिरथः परिच्छेत्तुय्याता वनलमनलस्कन्धवपुषः ततो भक्तिश्रद्धा भरगुरुगृणध्याङ्गिविषयत्वयन्तस्तेधाभ्याम् तव किमनुवृत्तिर्न फलति अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरम् दशाद्यो यद्बाहू न भृतरणकण्डू परवशान् शिरःपदमश्रेणी रचितचरणाम्भोर्भवलेः स्थिराया त्वद्भक्ते त्रिपुरहरविपूर्वमिदम् अमुष्यत्वत्सेवा समधिगतसारम् भुजवनम्